एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रेण नेकपा एमाले दलम् प्रविष्टाः चत्वारः सांसदाः दण्डिताः सन्तीति संघीय संसद सचिवालयः ज्ञापितो वर्तते। प्रतिनिधि सभायाः सदस्याः टोपबहादुर रायमाझी, लेखराज भट्टः, प्रभु शाह, गौरीशंकर चौधरी च दलस्य साधारण सदस्यतायाः निरसनत्वेन दण्डिताः इति माओवादी केन्द्रेण संघीय संसद सचिवालयः ज्ञापितोऽस्ति। राजनीतिक दलत्याग सम्बद्धस्य 370+2000 विक्रम अधिनियमस्य 31-32 नियमयोः अनुसारेण स्पष्टीकरणम् अभियाच्य मन्त्रिपरिषदः प्रत्यावर्तितुम् दत्तम् निर्देशनम् अस्वीकृतम् इति हेतोः दण्डनम् विहितमिति अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन संघीय संसद सचिवालयः ज्ञापितो वर्तते। लुम्बिनी प्रदेश सभायां प्रतिनिधित्वं कुर्वतोः नेकपा माओवादी केन्द्रस्य द्वयोः सांसदयोः पदं निरस्तं वर्तते। प्रदेश सभायाः गतदिने उपविष्टे उपवेशे सभामुख पूर्णबहादुर घर्ती प्रदेश सभा नियमावल्याः राजनैतिक दल सम्बद्धस्य अधिनियमस्य च अनुसारेण रूपन्देही जनपदस्य प्रथम क्षेत्रस्य ख क्षेत्राद् निर्वाचितस्य दधिराम न्यौपाने विदस्य गुल्मी जनपदस्य द्वितीय क्षेत्रस्य ख क्षेत्राद् निर्वाचितस्य दिनेश सांसद पदम निरस्तीभूतमिति अबोधयत्। सर्वोच्च न्यायालयेन नेकपा दलम् निरस्य विहितम् माओवादी केन्द्र नेकपा एमाले दलयोः पुनस्थापन मनु न्यौपाने पन्थी च एमाले दलम् प्रविष्टौ तदनु माओवादी केन्द्रेण इमौ दण्डयित्वा सांसदयोः पदम् निरस्तीकर्तुम् प्रदेश सभा सचिवालयः ज्ञापितः आसीत्। अत्रान्तरे लुम्बिनी प्रदेश सभायाः सप्तमम् अधिवेशनम् ह्यः अन्तम् अभवत्। कर्णाली प्रदेशस्य त्रिभिः मन्त्रिभिः ह्यः सामूहिक त्यागपत्रम् प्रदत्तम् वर्तते। नेकपा एमाले दलेन माओवादी केन्द्राय दत्तस्य समर्थनस्य प्रत्यावर्तनम् अनु एमाले दलात् सर्वकारे सहभागिनः सामाजिक विकास मन्त्री दल रावलः, उद्योग पर्यटन वन वातावरण मन्त्री नन्द सिंह बुढा, आर्थिक विषय योजना मन्त्री प्रकाश ज्वाला च मुख्यमन्त्रिणः महेन्द्र बहादुर साईनः समक्षम् त्यागपत्रम् आर्पयन्। नेकपा दलस्य विभाजनम् अनु एमाले दलेन अस्यैव चैत्रस्य पञ्चमे दिवसे माओवादी केन्द्राय दत्तम् समर्थनम् प्रत्यावर्तयितुम् सर्वकारे सहभागिनो मन्त्रिणः प्रत्याह्वातुम् च निर्णीतम् आसीत्। चत्वारिंशत् सदस्यायाम् कर्णाली प्रदेश सभायाम् नेकपा एमाले दलस्य 20, माओवादी केन्द्रस्य 12, नेपाली कांग्रेस दलस्य 6, राप्रपा दलस्य 1 सांसदाः सन्ति। प्रतिनिधि सभाया शिक्षा स्वास्थ्य समित्या भारतेन सहितेषु प्रतिवेशी राष्ट्रेषु प्रवर्धमानेन कोरोना विषाणो संक्रमणेन नेपालेऽपि सम्भावितं संकटम् आकलय्य आवश्यक सावधानताम् अवलम्बितुं निरोधन नियन्त्रणयोः कृते पूर्वकार्यं विधातुं च सर्वकारः निर्दिष्टो वर्तते। कोरोना संक्रमणस्य निरोधन नियन्त्रणयोः कृते सर्वकारेण विहितानां कार्याणाम् अनुगमनाय संघटितायाः उपसमितेः प्रतिवेदनं विमृष्टुं ह्यः सिंहप्रासादे उपविष्टेन समितेः उपवेश विगतस्य अनुभवस्य आधारेण सुरक्षण कक्षैकान्तवासानां व्यवस्थापनादि पूर्वकार्याणि विधातुं सर्वकारः निर्दिष्टोऽस्ति। उपवेशे स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी स्वास्थ्य संस्थासु जनशक्तेः अभावस्य सम्बोधनत्वेन मन्त्रालयेन कर्मचारी समायोजनस्य पुनरवलोकनं विधातुम् अपेक्षितमस्तीति अवोचत्। ह्य आराष्टम् अतिरिक्तेषु 60+102 जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। ह्य अतिरिक्ताः 13+100 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि आराष्टम् 179+900 च कोरोना विषाणोः सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी चीन सर्वकारेण अनुदाने प्रदत्तम् कोविड 19 विरोधी भेरोसेल नामकं टीकाकरणम् अद्यतः जनेषु आधातुं प्रारभ्यते इति ज्ञापयति। एतत् ख्रीष्टवर्षीयं नेपाल स्वास्थ्य सम्मेलनं ह्यः काष्ठमण्डपे उद्घाटयन् मन्त्री त्रिपाठी अद्यतः 40+59 वयस्समूहाभ्यो व्यक्तिभ्यः टीकाकरणमेतद् विधीयते इति अज्ञापयत्। मन्त्री त्रिपाठी अवोचत् भारते संक्रमणस्य वर्धनेन नेपालेऽपि पुनः संक्रमण संकटः वर्धितोऽस्ति। काष्ठमण्डपो उपत्यकया सहितम् आराष्टम् प्रदूषणस्य पुनः वर्धनस्य कारणात् अत्यावश्यक कार्यम् विहाय गृहात् बहिः न निष्क्रमणीयम् इति जनस्वास्थ्य विज्ञः परामृशति। वने प्रसृतस्य दावानलस्य कारणात् वायु प्रदूषणम् सोमवासरतः पुनः वर्धितम् इति वातावरण विभागस्य उपमहानिर्देशक प्रवक्ता च इन्दु विक्रम जोशी अज्ञापयत्। असौ अत्यावश्यक कार्यम् विहाय गृहात् बहिः न निष्क्रान्तुम् निष्क्रमणे अनिवार्य सम्भूते मुखावरणिकाम् प्रयोक्तुम् च अन्वरुणत्। असौ वायु प्रदूषणस्य कारणेन क्लोमनी अर्बुदस्य हृदय सम्बद्ध रोगस्य मस्तिष्काघातस्य हृदयाघातस्य च जटिल समस्या उद्भवन्तीति हेतो विशेष सावधानता अवलम्बनीयेति अकथयत्। भौतिक योजना यातायात मन्त्री वसन्त कुमार नेवाङ निगदति तमोर जलाशयायुक्तायाः जलविद्युत दायोजनायाः निर्माणाय निवेशन समित्या स्रोत संचयन कार्यम् अग्रे वर्धापितं वर्तते। गतदिने पाँचथर जनपदस्य फिदिम स्थाने आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री नेवाङ अगदत् सर्वकारेण विकास योजना तीव्र गत्या अग्रे वर्धाप्यमानाः सन्ति। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री डाक्टर शिवमाया तुम्बहाम्फे गदति व्यक्तिभिः अतिक्रान्तायाः कतिपय भूमेः सर्वकारस्य नाम्नि प्रत्यावर्तनस्य कार्यम् सर्वकारेण सर्वाधिक महद उपलब्धेः रूपेण मतमस्ति। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयस्य दायित्व वहनस्य शतदिनानाम् पूरणस्य अवसरे ह्य आयोजिते पत्रकार सम्मेलने मन्त्री तुम्बहाम्फे दुराशयेन अवैधानिक रूपेण च व्यक्तिभिः पञ्जीकारिताः भूमयः सर्वकारेण प्रत्यावर्तिष्यन्ते एव इति दृढताम् व्यक्तवती। काष्ठमण्डप महानगरपालिकायाः त्रिंशस्य वडाक्षेत्रस्य वडाक्षेत्र सचिवेन भरत कुमार पोखरेलेन सेवाग्राहितो लक्षचतुष्टय रूप्यकाणाम् उत्कोचो गृहीत इत्यारोपे एनम् विरुध्य अधिकार दुरुपयोगानुसन्धानायोगेन ह्य काष्ठमण्डपवर्तिनि विशेष न्यायालये आरोपपत्रम् पञ्जीकारितम् वर्तते। वडा सचिवेन पोखरेलेन सेवाग्राहिणे नियमानुसारेण प्राप्तव्यम् वित्तम् न प्रदाय लक्षचतुष्टयस्य रूप्यकाणाम् उत्कोच ग्रहणस्य पुष्टिभवनमनु पोखरेलम् विरुध्य विशेष न्यायालये आरोपपत्रम् पञ्जीकारितमिति आयोगस्य प्रवक्त्रा नारायण प्रसाद रिसालेन प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। सर्वोच्च सगरमाथा शिखरेण सहितान् हिमालयान् आरोढुम् सप्तत्रिंशता आरोही समूहैः आरोहणानुमतिः प्राप्ता वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य पर्यटन विभागेन ह्यस्तनावधि वसन्तयामे सगरमाथा सहितानाम् हिमालयानाम् आरोहणाय सप्तत्रिंशते आरोही समूहेभ्यः आरोहणानुमतिः प्रदत्तेति ज्ञापितम् वर्तते। सगरमाथा शिखरस्य अष्टादशभिः सहितेभ्यः सप्तत्रिंशतः आरोही समूहानाम् त्रयाय आरोहिभ्य आरोहणानुमतिः प्रदत्तेति विभागो ज्ञापयति इति समाचारः।